श्रीदुर्गायै नमः। श्रीदुर्गा सप्तशती अथ दशमोऽध्यायः। ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि नेत्रान्धनुश्शरयुताङ्कुशपाशशूलम् रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्। ॐ ऋषिरुवाच निशुम्भन् निहतन् दृष्ट्वा भ्रातरं प्राणसंमितं हन्यमानं बलैश्चैव शुम्भः क्रुद्धो ब्रवीद्वचः बलावलीपादुष्टे त्वं मा दुर्गे गर्वमावह। अन्यासां बलमाश्रित्य युध्यसे याति मानिनि। देव्युवाच एकैवाहै जगत्यत्र द्वितीया काममापरा पश्यैता दुष्टमयेव विशन्त्यो मद्विभूतयः। ततस्तमस्तास्ता देव्यो ब्रह्माणि प्रमुखालयम् तस्या देव्यास्तनौ जग्मु रेकैवासीतदाम्बिका। देव्युवाच अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता तत्संवृतं मयैकैव तिष्ठां याजौ स्थिरो भव। ऋषिरुवाच ततः प्रववृते युद्धं देव्या शुम्भस्य चोभयोः पश्यतां सर्वदेवानामसुराणाय च दारुणम् शरवर्षैशतैशस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धमभूद्भूयस् सर्वलोकभयङ्करम्। दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका बभैजतानि दैत्येन्द्रस् तत्प्रतीघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी बभैजलीलयैवोग्र हुङ्कारोच्चारणादिभिः ततशरशतैर्देवी माच्छादयतसोऽसुरः सापि तत्कुपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुषि दैतीन्द्रस्तथा शक्तिमथा ददे चिच्छेददेवी चक्रेण तामप्यस्य करे स्थिताम् ततः खड्गमुपादाय शतचन्द्रै च भानुमत् अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः तस्यापततैवाशु खड्गैश्चिच्छेदचण्डिका धनुर्मुक्तैशितैर्बाणैः चर्मचार्ककरामलम् हताश्वस्य तदा दैत्यश्चिन्नधन्वा विसारथिः जग्राहमुद्गरं घोर मम्बिकानिधनोद्यतः चिच्छेदापततस्तस्य मुद्गरं निशितैश्शरैः तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः देव्यास्तै चापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपातमहीतले स दैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्य च प्रगृह्यो चैर्देवीं गगनमास्थितः तत्रापि सा निराधारा युयुधे तेन चण्डिका नियुद्धं खेतदा दैत्यश्चण्डिका च परस्परम् चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह उत्पात्य भ्रामयामास चिक्षेपधरणीतले सक्षिप्तो धरणीं प्राप्य मुष्टिमुद्दिम्य वेगितः अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया तमायान्तन्ततो देवी सर्वदैत्यजनेश्वरम् जगत्यां पातयामास भित्त्वा शूलेन वक्षसि सगता सुपपातो व्यां देवी शूलाग्रविक्षतः चालयन् सकलां पृथ्वीं साभिद्वीपां सपर्वतां ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि जगत्स्वास्थ्यमतीवाप निर्मलै चाभवन्नभः उत्पातमेघासोल्काये प्रागासंस्तेशमय्ययुः सरितो मार्गवाहिं यस्तथा संस्तत्र पातिते ततो देवगणा सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वा ललितै जगुः अवादयं सत तथैवान्ये न मृतुश्चाप्सरोगणाः वहुः पुण्यास्तथा प्राता सुप्रभो भूदिवाकरः जज्ज्वलुश्चाग्नयशान्ता शान्ता दिग्जनितस्वनाः इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भवधो नाम दशमो